एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः सर्वकारेण नेपाल सर्वकारस्य एमसीसी नामधेयस्य अमेरिका देशीय सहयोग नियोगस्य च मध्ये सम्पन्ना अनुदान सहायता संविदा ह्य प्रतिनिधिसभायां प्रस्तुता वर्तते। सर्वकारेण सत्ता गठबन्धनस्य दलानाम् असहमतेः प्रमुख प्रतिपक्षेण नेकपा एमाले दलस्य संसदः अवरोधनस्य च मध्ये अमेरिका देशीय अनुदान सहायता संविधेयं प्रतिनिधिसभायां प्रस्तुतास्ति। उपवेशे एमसीसी संविधान प्रस्तुवन संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की नेपालस्य संविधानस्य सर्वोच्चताया स्वतन्त्रताया सार्वभौम सत्तायाश्च अनुल्लङ्घनकारिण्याः अमेरिका देशीयानुदान सहायता संविधाया संसदा अनुमोदनाय अन्वरुणत। मन्त्री कार्की अमेरिका देशीय सहयोग निकायस्य एमसीसी संविधाया माध्यमेन चतुश्शत मेगावाट केवी मित क्षमताया विद्युत प्रसारण प्रणाल्या विभिन्नानां क्षेत्राणां मार्गाणां निर्माण सम्भारयोश्च कृते आसन्न षष्टेः अब्जानां रूप्यकाणां सहायता प्राप्स्यते इति अज्ञापयत्। एमसीसी संविधाया प्रस्तुते प्राग उपवेशे नेकपा माओवादी केन्द्रस्य प्रमुख सचेतक पदीयो देव प्रसाद गुरूङ दलानां मध्ये सहमति धारणं विना एमसीसी संविधा कार्यसूच्यां समाविष्टेति कृत्वा गभीरा आपत्तिरस्तीति अवोचत। प्रमुख प्रतिपक्षेण नेकपा एमाले दलस्य सांसद भीम बहादुर रावलः राजनीतिक दलानां सहमत्या विना संसदि प्रमुख प्रतिपक्षी दलस्य विरोधस्य च मध्ये स्वाधीनता विपरीता एमसीसी संविधा संसदि प्रस्तुतेति कृत्वा आपत्तिं प्राकटयत। प्रतिनिधिसभायाः उपवेश अस्यैव फाल्गुन मासस्य द्वादशे दिवसे बृहस्पतिवासरे दिवा एकवादने उपवेशनत्वेन स्थगितीकृतो वर्तते। सर्वकारेण राष्ट्रस्य आवश्यकतायाः प्राथमिकतायाश्च आधारेण विकास सहायता स्वीकृत्य उपयुज्यमाना वर्तते इति स्पष्टीकृतमस्ति। नेपालेन स्वीकृतायाः एमसीसी संविधायाः सहयोगस्य विषये विभिन्नेषु संचार माध्यमेषु सार्वजनिकभूताः अभिव्यक्तिः खण्डयता सर्वकारेण नेपालस्य पूर्वाधाराणां निर्माण विकासयोः सहायतया महत्वपूर्णा भूमिका निर्वीयते इति ज्ञापितं वर्तते। राष्ट्रिय हितस्य प्राथमिकतायाश्च आधारेण नेपालेन विकास सहायता स्वीकृता नेपालस्य नेपालीनां च हिताय कीदृशी विकास सहायता आवश्यकी भवति इत्यस्य निर्णयः देशस्य सार्वभौम संसदा विधीयते इति यथार्थं स्मारयता परराष्ट्र मन्त्रालयेन ह्य विज्ञप्तिं प्रकाश्य स्वकीय मित्र राष्ट्राणां विकासस्य सहयोगिनां निरन्तरं सद्भावना अपेक्षिता वर्तते। नेपालेन सदैव स्वतन्त्र सन्तुलिता असंलग्ना च परराष्ट्र नीतिः अवलम्ब्यमाना वर्तते। एतस्याः एव नीतेः अनुसारेण सार्वभौम सत्ता सम्पन्न राष्ट्रस्य रूपेण नेपालेन आवश्यकतायाः प्राथमिकतायाश्च आधारेण विकास सहायता स्वीकृतास्ति इति विज्ञप्तौ उल्लिखितमस्ति। नेपाली कांग्रेस दलस्य महामन्त्री गगन कुमार थापा कथयति तात्कालिक प्रधानमन्त्रिणः केपी शर्मा ओलिनो नेतृत्वस्य सर्वकारेण सदने पञ्जीकारिता एमसीसी संविधा वर्तमान सर्वकारेण विमर्शनेन निष्कर्षं प्राप्तुं सदने प्रस्तुतास्ति। प्रतिनिधिसभाया ह्यस्तनोपवेशे एमसीसी संविधायाः प्रस्तुतेः अनन्तरं संचारकर्मिणां जिज्ञासायां महामन्त्री थापा एमसीसी संविधायाः कतरस्मिन् पक्षे दलानि सन्तीति स्पष्ट धारणायाः उपस्थापनस्य आवश्यकता वर्तते। संचारकर्मिणां जिज्ञासायां नेकपा एकीकृत समाजवादी दलस्य नेता झलनाथ खनालः नेपाल सर्वकारस्य अमेरिका देशीय सहयोग निकायस्य मध्ये विहितायाः संविधायाः सदनात् अनुमोदनम् आवश्यकं नास्तीति धारणाम् उपस्थापयत्। नेता खनालः अवोचत् संविधायाः संशोधनं परिमार्जनञ्च विधाय अग्रे वर्धापितायं सत्यं राष्ट्रियहिते भविष्यति। नेपाली कांग्रेस दलस्य महामन्त्री विश्व प्रकाश शर्मा एमसीसी संविधायाः विषये ज्ञानेन विना विरोधे सन्नद्धा न भवितुम् अनुरोधि। झापा जनपदस्य वीरतामोड स्थाने ह्य आयोजिते कार्यक्रमे नेता शर्मा अवदत् कांग्रेस दलेन सदैव एमसीसी संविधायाः विषये स्पष्टा धारणा व्यक्ता वर्तते। सम्प्रति एमसीसी संविधायां राष्ट्रघातस्य रूपेण अवलोकितायं सत्यमपि वर्षाणां विंशते पश्चात् संविधेयं राष्ट्रिय राष्ट्रिय आयस्य सबलम स्रोतो भविष्यति इति महामन्त्री शर्मा न्यस्तिनोत् असौ नेपालः कस्यापि राष्ट्रस्य पक्षे न तिष्ठति इति स्पष्टीकुर्वन् सर्वेषाम् देशानाम् निवेशस्य स्वागतम् करोति इति अवोचत। सैन्य रणनीतिम् विहाय सर्वेषाम् देशानाम् सहयोगः स्वीक्रियते इति महामन्त्री शर्मा समस्पष्टयत्। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड आत्मभि एमसीसी नाम्न्यः अमेरिका देशीय सहयोग परियोजनायाः विपक्षे स्थितम् अस्तीति भासते। सर्वकारस्य ह्य प्रतिनिधिसभायाः उपवेशे एमसीसी संविधायाः प्रस्ताव प्रस्तुतेः अनन्तरम् सामाजिक सञ्जालस्य माध्यमेन अध्यक्ष प्रचण्ड विवाद विरोधयोर्मध्ये प्रस्तुतस्य प्रस्तावस्य विषये आत्मना स्वदलेन च विपक्षे स्थीयते इति स्पष्टीकरोति। अध्यक्ष प्रचण्ड एमसीसी संविधा न प्रस्तोतव्येति निगद्य विरोधे सन्नद्धेषु प्रदर्शनकारिषु प्रहरीभिः विहितम् दमनम् विरुन्धानः आहतानाम् जनानाम् शीघ्रम् स्वास्थ्यलाभम् च अकामयत। सत्ता गठबन्धने आबद्धेन राष्ट्रिय जनमोर्चा दलेन एमसीसी संविधायः संसदि प्रस्तुतेर्विषये स्वस्य दलस्य सहमतिः नास्तीति ज्ञापितम् वर्तते। दलस्य उपाध्यक्षेण प्रवक्त्रा च दुर्गा पौडेलेन ह्यः विज्ञप्तिम् प्रकाश्य पञ्चदलीय गठबन्धने संविधायः प्रस्तुतेर्विषये सहमतिः धृता नास्तीति उल्लिखन्त्या स्वस्य दलस्य असहमतेः कारणेन कतिपयेषु उपवेशेषु जनमोर्चा दलस्य सहभागिता न विहितेति उक्तम् वर्तते। आराष्ट्रम् लक्षित जनसंख्याया प्रतिशतम् अष्टासप्तत्याम् जनतायाम् कोरोना प्रतिरोधी टीकाकरणम् आहितम् अस्तीति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितम् वर्तते। अधुनावधि एक कोट्या षट्सप्तत्या लक्षैः चतुष्षष्ट्या सहस्रैः षोडशाधिक पञ्चशतेन च जनैः पूर्णमात्रायाः टीकाकरणम् गृहीतम् वर्तते। मन्त्रालयस्य ह्यस्तने संचार संक्षेप कार्यक्रमे सर्वकारेण अस्यैव चैत्र मासस्य अन्तम् यावत् अष्टादशतः अधिक वर्षाणाम् वयस्केषु सर्वेषु नागरिकेषु कोरोना प्रतिरोधिनः टीकाकरणस्य पूर्णमात्रायाः आदानस्य लक्ष्यम् निर्धारितम् अस्तीति प्रवक्ता डा संगीता मिश्रः अज्ञापयत्। अत्रान्तरे ह्य आराष्ट्रम् द्वाषष्ट्यधिक शतद्वय जनेषु कोरोना संक्रमणम् पुष्टीभूतम् वर्तते। नवसहस्राणाम् पञ्चदशाधिकाष्ट शतस्य च जनानाम् विहितेन परीक्षणेन द्वाषष्ट्यधिक शतद्वय जनेषु संक्रमणम् पुष्टीभूतमिति स्वास्थ्य मन्त्रालयेन ज्ञापितमस्ति। ह्य आराष्ट्रम् अतिरिक्ताः सहस्रम् अष्टात्रिंशदधिक शतत्रयम् च जना कोरोना संक्रमणात् मुक्ताः सन्ति। कोरोना संक्रमणेन ह्य अतिरिक्ताः चत्वारो जनाः मृता इति मन्त्रालयसौ सूचयति। इति समाचारः।